इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अद्य लोकसभा अध्यक्षस्य निर्वाचनम् प्रांगणे ओम बिरला एनडीएतः तथा इंडिया गठबंधनतः के सुरेशः। अष्टादश्याः लोकसभायाः अध्यक्षपदस्य निर्वाचनम् अद्य भविष्यति। भाजपा दलस्य वरिष्ठः सांसदः ओम बिरला एतद्वारम् अपि अस्मै पदाय राष्ट्रिय जनतांत्रिक गठबंधनस्य प्रत्याशी विद्यते। तत्रैव विपक्षतः इंडिया गठबंधनतः कांग्रेस सांसदः के सुरेशः अस्ति। संसदीय कार्यकारी मंत्री किरेन रिजिजू उक्तवान यत् लोकसभायाः अध्यक्षः सर्वसम्मत्या निर्विरोधेन निर्वाचितः भवेत्। संसदात् बहिः केन्द्रीय मंत्री पीयूष गोयलः अवदत् यत् केन्द्रीय वरिष्ठ मंत्रिणः राजनाथ सिंहः, अमित शाहः, जेपी नड्डा लोकसभा अध्यक्षस्य चयन विषये सहमतिं निर्मातुं कांग्रेस नेत्रा केसी वेणुगोपालिन एवं डीएमके द्रविड मुन्नेत्र कड़गम इति दलस्य सांसदेन टीआर बलुना सह मिलितवन्तः। कांग्रेस सांसदः राहुल गांधी उक्तवान यत् विपक्षः लोकसभा अध्यक्षपदाय राष्ट्रिय जनतांत्रिक गठबंधनस्य प्रत्याशिनं समर्थयितुं सज्जः अस्ति, परन्तु उपाध्यक्षपदं विपक्षाय दातव्यम्। अस्माकं वार्ताहरेण उक्तं यत् स्वातन्त्र्यकालात् एव लोकसभायाः अध्यक्षस्य निर्वाचनं कीदृश्याः स्पर्धायाः विना भवति स्म, परन्तु एतद्वारम् अस्ति यत् यदा अस्य पदस्य कृते निर्वाचनं भवति। संविधानस्य अनुच्छेद 93 लोकसभायाः अध्यक्षः सामान्येन बहुमतेन निर्वाचितः भवति। अष्टादश लोकसभायां नवनिर्वाचितानां सांसदानां शपथग्रहणस्य प्रक्रिया सम्पन्ना। राष्ट्रपतिः द्रौपदी मुर्मूः गुरुवासरे लोकसभायाः राज्यसभायाश्च संयुक्त सभां सम्बोधयिष्यति। अष्टादशी लोकसभायां 74 महिलानां निर्वाचनं कृतम्, याः विधि निर्माणे महत्वपूर्णं योगदानं दास्यन्ति। अष्टादशी लोकसभा न केवलं देशस्य विविधतायाः प्रतिनिधित्वस्य कृते अपि तु महिलानां महत्वपूर्णायै उपस्थितये अपि उल्लेखनीया अस्ति। विविधेभ्यः व्यवसायिभ्यः क्षेत्रेभ्यः पृष्ठभूमिभ्यश्च 74 महिला प्रतिनिधिभिः च सह अष्टादशी लोकसभा लोकतांत्रिकस्य समावेशी राष्ट्रस्य च भावनायाः प्रतिबिम्बरूपा अस्ति। दिल्ली उच्च न्यायालयेन धनशोधन प्रकरणे दिल्ली मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निग्रह विमोचन प्रतिभूति याचिका प्रदानाय न्यायालयस्य आदेशः स्थगितः। दिल्ली उच्च न्यायालयेन धनशोधन प्रकरणे दिल्ली मुख्यमन्त्रिणः अरविन्द केजरीवालस्य निग्रह विमोचन प्रतिभूति याचिका प्रदानस्य कृते निम्न न्यायालयस्य आदेशः स्थगितः। उत्तर प्रदेश मन्त्रिमण्डलेन परीक्षापत्राणां श्रवणं निवारयितुम् अध्यादेशस्य अनुमोदनं कृतम्, यस्मिन् आजीवन कारागृह आवासः एककोटि रूप्यकाणां दण्डैश्च सह कठोरदण्डः प्रदत्तः। नीट राष्ट्रिय पात्रता सह प्रवेश परीक्षा भ्रष्टाचार प्रकरणे एकः आरोपी महाराष्ट्रस्य लातुर आरक्षिभिः निगृहीतः। ऋतुविभागेन आगामिषु 5 पश्चिमतटे पूर्वोत्तर भारते च प्रचण्ड वृष्टिः भविष्यति इति सम्भावना प्रकटिता। ऋतुविभागेन आगामिषु 4-5 पश्चिमतटे पूर्वोत्तर भारते च प्रचण्ड वृष्टेः सम्भावना प्रकटिता। आगामिषु 3-4 भारतस्य उत्तर पश्चिम मध्य पूर्व वायव्य भागेषु दक्षिण पश्चिम वर्षर्तोः कृते परिस्थितयः अनुकूलाः सन्ति इति वार्ताः।